तृतीय स्तबके उपचित्र छंदसो लक्षणोदाहरणयोः प्रदर्शनं वेवती छंदसो लक्षणोदाहरणयोः प्रदर्शनं हरिणप्लुता छंदसो लक्षणोदाहरणयोः प्रदर्शनं अपरवक्त्र छंदसो लक्षणोदाहरणयोः प्रदर्शनं पुष्पिताग्रा छंदसो लक्षणोदाहरणयोः प्रदर्शनं सुंदरी छंदसो लक्षणोदाहरणयोः प्रदर्शनं द्रुतमध्या छंदसो लक्षणोदाहरणयोः प्रदर्शनं भद्रविराट छंदसो लक्षणस्य निरूपणं केतुमती छंदसो लक्षणस्य निरूपणं आख्यानकी छंदसो लक्षणस्य निरूपणं विपरीताख्यानकी छंदसो लक्षणस्य निरूपणं यवमती छंदसो लक्षणस्य निरूपणं ललिता छंदसो लक्षणस्य निरूपणं षट्पदा छंदसो लक्षणस्य निरूपणं मृगीयवाणी छंदसो लक्षणस्य निरूपणं कौमुदी छंदसो लक्षणस्य निरूपणं मंजुसौरभ छंदसो लक्षणस्य निरूपणं कालभारिणी छंदसो लक्षणस्य निरूपणं चतुर्थे स्तबके उद्गता छंदसो लक्षणोदाहरणयोः प्रदर्शनं भार विप्रोक्तद्गताभेदस्य सौरभक छंदसो लक्षणोदाहरणयोः प्रदर्शनं ललित छंदसो लक्षणोदाहरणयोः प्रदर्शनं वक्तर छंदसोर्धसमत्व विषमत्वञ्च भवति इति संसूचनं वक्तर छंदसो लक्षणोदाहरणयोः प्रदर्शनं पथ्यावक्त्र छंदसो लक्षणोदाहरणयोः प्रदर्शनं वक्तर छंदसी लघुर वर्ण नियम निरूपणं पूर्वोक्त नियमस्य केश्चिदुक्तं प्रायिकत्वं प्रदर्श्य लोकोनुष्टनाम्ना प्रसिद्धस्य वित्तच्छन्दसोऽष्टाक्षरतायाः प्रतिपादनम् पञ्चमे स्तवके आर्याच्छन्दसो लक्षणस्य यातिनियमस्य च सोदाहरणं निरूपणम् आर्यायाः पथ्या विपुलादिरूपेण नवविधत्वस्य प्रतिपादनम् छंदसो लक्षणोदाहरणयोः प्रदर्शनं विपुलार्या छंदसो लक्षणोदाहरणयोः प्रदर्शनं चपलार्या छंदसो लक्षणोदाहरणयोः प्रदर्शनं मुखचपलार्या छंदसो लक्षणोदाहरणयोः प्रदर्शनं जघनचपलार्या छंदसो लक्षणोदाहरणयोः प्रदर्शनं गीतार्या छंदसो लक्षणोदाहरणयोः प्रदर्शनं उपगीत्यार्या छंदसो लक्षणोदाहरणयोः प्रदर्शनं उद्गीत्यार्या छंदसो लक्षणोदाहरणयोः प्रदर्शनं आर्यागीत्यार्या छंदसो लक्षणोदाहरणयोः प्रदर्शनं वैतालीय छंदसो लक्षणोदाहरणयोः प्रदर्शनं औपच्छन्दसिक छंदसो लक्षणोदाहरणयोः प्रदर्शनं पज्झटिका छंदसो लक्षणोदाहरणयोः प्रदर्शनं दोहंडिका छंदसो लक्षणोदाहरणयोः प्रदर्शनं षष्ठे स्तबके गद्यस्य लक्षणं निरूप्य तस्य चूर्णक उत्कलिका प्राय वृत्तगंधिरूपे त्रिविधत्वस्य प्रतिपादनम् चूर्णकोत्कलिका प्राय वृत्तगंधि गद्यानां लक्षणानि प्रदर्श्य तेषाम् उदाहरणानां निरूपणम् ग्रन्थेस्मिन् व्यवहारोचितानि छन्दांसि कीर्तितानि प्रस्तारादिकञ्च नोक्तमिति ग्रन्थकारोक्ते प्रदर्शनम् निजनिर्मितग्रन्थान्तराणां नामान्युल्लिख्य कविनां ग्रन्थकारेण गङ्गादासेन कृतं प्रकृतग्रन्थे लोकाधरणीयत्वस्य प्रार्थनं टीकाकारकृतं स्वग्रन्थे बालमनप्रसादसम्मते शुभांशासनं ग्रन्थसमाप्तिसूचनं स्वकीयपरिचयप्रदानमुखेन टीकाकारकल्पितः प्रकृतकार्योपसंहारः।